शतम् देव देवस्य महादेवस्य पावनम् अपारम् परमोदारम् चतुर्वर्गस्य साधनम् गौरी विनायकोपेतम् पञ्चवक्त्रम् त्रिनेत्रकम् शिवम् ध्यात्वा दशभुजम् शिवरक्षां पठे नरः गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः नयने मदनध्वंसी कर्णो सर्पविभूषणः घ्राणम् पातु पुरारात्य मुखम् पातु जगत्पतिः जुहां वागीश्वरः पातु कन्धराम् शितिकन्धरः श्रीकण्ठः पातु मे कण्ठम् स्कन्धौ विश्वधुरन्धरः भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् हृदयम् शङ्करः पातु जठरम् गिरिजापति नाभिम् मृत्युञ्जयः पातु कटिव्याघ्राजिनाम्बरः सक्तिनी पातु दीनार्थ शरणागतवत्सलः ऊरुः महेश्वरः पातु जानुनी जगदीश्वरः जङ्घे पातु जगत्कर्ता गुल्फो पातु गणाधिपः चरणौ करुणा सिन्धु सर्वाङ्गानि सदा शिवः एताम् शिवबलोपेताम् रक्षाम् यः सुकृतिम् पठे स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयाम् ग्रहभूत पिशाचाद्यास्त्रैलोक्ये विचरन्ति ये दूरादाशु पलायन्ते शिवनामाभिरक्षण अभयङ्करनामेदम् कवचम् पार्वतीपते भक्त्या बिभर्ति यः कण्ठे तस्य वश्यम् जगत्त्रयम् इमाम् नारायण स्वप्ने शिवरक्षाम् यथा दिश प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथा लिख याज्ञवल्क्यस्तथा